Om Anjaneyaya Namaha. This Gayatri is on Lord Hanuman, who is only the most important Bhakta of Lord Shri Ram.
विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्। पवनात्मजाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्। जाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्। जाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्। पवनात्मजाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्। पवनात्मजाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्। पवनात्मजाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्। हनुमत् प्रचोदया राजाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्। पवनात्मजाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्।
पवनात्मजाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्।
ॐ पवनात्मजाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्। जाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्। पवनात्मजाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्। पवनात्मजाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्। पवनात्मजाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्। हनुमत् प्रचोदयात्। राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्। पवनात्मजाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्।
पवनात्मजाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्।
ॐ पवनात्मजाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्। भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्।
पवनात्मजाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्।
पवनात्मजाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्।
पवनात्मजाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत्
प्रचोदयात्। ॐ पवनात्मजाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्। ॐ पवनात्मजाय विद्महे राम भक्ताय धीमहि तन्नो हनुमत् प्रचोदयात्।
प्रचोदयात्।
ॐ రాజాయ విద్మహే రామ భక్తాయ ధీమహీ తన్నో హనుమత్ ప్రచోదయాత్. పవనాత్మజాయ విద్మహే రామ భక్తాయ ధీమహీ తన్ను హనుమత్ ప్రచోదయా. జాయ విద్మహే రామ భక్తాయ ధీమహీ తన్నో హనుమత్ ప్రచోదయాత్.